नमः प्रियाः श्रोतारः, संस्कृत साप्ताहिकेति कार्यक्रमस्य अभिनवे अंके अहम् कार्यक्रमस्योद्घोषिका निधि तिवारी सर्वेभ्यः श्रोतृजनेभ्यः मंगलवचांसि नैजं नमनं समर्पयामि। श्रोतारः, स्वागतमस्ति एतस्मिन् नूतने अंके भवताम् समेषाम्। मित्राणि, आयान्तु कार्यक्रमस्य शुभारम्भम् सुभाषितानुभागेन सह कुर्वन्तु। सुभाषितानुभागोऽयम् प्रस्तूयते पुनीत त्रिपाठिना।
तृणम् लघु तृणात् तूलम् तूलादपि च याचकः, वायुना किम् न नीतोऽसौ मामयम् याचयिष्यति।
श्रोतृगणाः, अधुना चलामस्तावत् प्रसङ्गप्रभागम् प्रति। प्रसङ्गविभागेऽस्मिन् गणेशस्तोत्रेण सह उपस्थितास्ति अस्मदीया सहयोगिनी वन्दना रानी।
श्रीसङ्कटनाशनम् गणेशस्तोत्रम् प्रणम्य शिरसा देवम् गौरीपुत्रम् विनायकम् भक्तवासं स्मरेन्नित्यम् मायुः कामार्थसिद्धये। प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकं तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकं लंबोदरं पञ्चमं च षष्ठं विकटमेव च सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टकं नवमं भालचन्द्रं च दशमं तु विनायकम् एकादशं गणपतिं द्वादशं तु गजाननं द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो।
प्रियमित्राणि, अग्रिम प्रभागे अस्ति साप्ताहिकी वार्ताः। प्रभागे एतस्मिन् दैशिक वैदेशिक वार्ताः अवलम्ब्य समुपस्थितास्ति अस्माकम् सहयोगिनी सुषमा कुमारी।
भारतदेशेन स्वीय द्वितीय जलमग्नपोतस्य INS अरिघात इति नामधेयस्य जलावतरणं विहितम्। त्रिपुरा राज्य सर्वकारेण तत्रत्यं भीषणातिभीषण जलपूर स्थितिमालक्ष्य अशेष प्रदेशं प्राकृतिक आपद क्षेत्रम् उद्घोषितम्। भारतदेशेन प्रशांत मैत्रीपूर्ण देशानां प्रशांत समूह मञ्चस्य सम्बन्धः सुदृढीकर्तुं स्वीय प्रतिबद्धता पुनः व्याहृता। चतुर्दश प्रशांत द्वीपेषु एकस्मिन् 50 अमेरिकीय डॉलर मितस्य त्वरित प्रभावशीलानां परियोजनानां घोषणा प्रकटिता। पेरिस पैरालंपिक प्रतियोगितासु प्रथमदिवसे बैडमिंटन क्रीडकाः विजिताः। विदेशमन्त्रिणा डॉक्टर एस जयशंकरेण नवदिल्ल्यां इज़राइल देशीय महानिदेशकेन याकोव ब्लिस्ट्रिस्टेन सम्भाषणं विहितम्। राष्ट्रीय सुरक्षा परामर्शदाता अजीत डोभालः द्विदिवसीय यात्रायां कोलंबो नगर्यां सम्प्राप्तवान्। अत्र असौ कोलंबो सुरक्षा सम्मेलने अभिव्यक्त विचाराणां समीक्षां विधास्यति।
संस्कृत भाषानुरागिणः मे श्रोतारः, कालः समागतः सम्प्रति ज्ञान विज्ञानस्य, यत्र एकेन विदुषा सह अस्माकं सहयोगी साक्षात्कारं करोति। तावत् अस्य सप्ताहस्य विद्वानस्ति राष्ट्रिय शैक्षिकानुसन्धान प्रशिक्षण परिषदः भाषा शिक्षा विभागस्य सहायकाचार्यः डॉक्टर वाचस्पति नाथ झामणि महोदयः। एतेन सह संवादं समाचरति सुरेश चन्द्र शर्मा। आगच्छन्तु श्रोतारः, साक्षात्कारक्रमम् एनं शृणुमः।
संस्कृत संस्कृति समुपासकाः, प्रियाः श्रोतृवर्याः, यथा सर्वे जानन्ति यत् इदानीं संस्कृत सप्ताहः सम्पूर्णेऽपि विश्वे सोत्साहेन सानन्देन च समाचर्यते। उपलक्ष्येऽस्मिन् आकाशवाण्याम् अद्य अस्माभिः सह संवादाय समुपस्थिताः सन्ति राष्ट्रिय शैक्षिकानुसन्धान परिषदि भाषा शिक्षा विभागे सहायकाचार्य पदमलङ्कुर्वतः डॉक्टर वाचस्पति नाथ झा मणिवर्याः। झा महोदयानां हर्षातिरेकाभिनन्दनवचोभिः आकाशवाणी पक्षतः अहम् सुरेश चन्द्र शर्मा हार्दिकम् अभिनन्दनम् स्वागतम् च वर्तामहे।
नमो नमः, धन्यवादः।
महोदयाः, संवाद प्रभागस्य एतस्य प्रथमे अंशे प्रश्नः यत् अर्वाचीनेऽस्मिन् काले सर्वकारेण संस्कृतभाषायाः प्रचार प्रसारः सर्वत्र क्रियते, महोदयाः, अस्याः संस्कृतभाषायाः उत्पत्तिः कथम् अभूत् इत्यस्मिन् विषये श्रोतारः ज्ञातुमिच्छन्ति।
भवतां सर्वेषां श्रोतृवर्गाणां स्वागतं व्याहरामि। यदि भाषोत्पत्तिः विषये वयं चर्चयामश्चेत् अस्याः उत्पत्तेः केचन सिद्धान्ताः भाषावैज्ञानिकैः स्वीकृताः सन्ति। तेषु प्रायशः 99% भाषावैज्ञानिकाः दिव्योत्पत्तिसिद्धान्तम् समर्थयन्ति। अयम् सिद्धान्तः कथयति यत् ईश्वरेण वेदज्ञानम् प्रदत्तम्। तथैव वैदिकीभाषा संस्कृतभाषापि ईश्वरेण प्रदत्ता अस्ति, यतो हि संस्कृतभाषायाः सर्वप्राचीनतमः अभिलेखः वेदेषु अर्थात् ऋग्यजुसाम अथर्ववेदेषु प्राप्यते। वेदाः विश्वस्य प्राचीनतमाः श्रुतपरम्परया प्राप्ताः भारतात्मभूताः ग्रन्थविशेषाः सन्ति। चित्सु मन्त्रेषु भाषायाः उत्पत्तिविषये अपि केचन विचाराः समुपस्थापिताः सन्ति, यैः एतदपि अवगम्यते यत् अस्याः संस्कृतभाषायाः प्रसवः देवैः कृतः। यथा ऋग्वेदे विलिखितम् अस्ति यत् देवीम् वाचमयन्त देवास्ताम् विश्वरूपा पशवो वदन्ति, अर्थात् देवाः एव देवीम् वाचम् अर्थात् संस्कृतभाषायाः सृजनाम् कृतवन्तः। तासाम् अनुप्रयोगम् विश्वरूपाः मानवाः तथा च पशवोऽपि कुर्वन्ति वदन्ति च। एवञ्च अथर्ववेदे विलिखितम् अस्ति यत् देवाः पशुपक्षिमनुष्येभ्यो वाचम् ददुः, अर्थात् संस्कृतभाषायाः सृजनाम् कृत्वा देवाः पशुपक्षिमनुष्येभ्यो वाचम् अर्थात् संस्कृतभाषाम् प्रदत्तवन्तः। तदारभ्य अस्मिन् खलु ब्रह्माण्डे या भारतात्मभाषा अस्ति सा संस्कृतभाषा प्रस्फुटा अभवत्। अस्यामेव भाषायाम् वेदानाम् तत्र ऋग्यजुः साम अथर्वानाम् वेदाङ्गानाम् शिक्षानिरुक्त व्याकरण ज्योतिष छन्दस कल्पादीनाम् ब्राह्मण आरण्यक उपनिषद आदिकाव्य रामायणम् जयकाव्य महाभारतम् पुराणादीनाम् काव्यानाम् नाटकानाम् चम्पूनाम् कथासाहित्यादीनाम् च प्रौढतराणाम् ग्रन्थानाम् लेखनम् अभवत्। वस्तुतस्तु एषा भाषा सर्वासु भाषासु परिष्कृता परिशोधिता सर्वजनमान्या मधुरतमा मनोहारिणी सरला च अस्ति। अर्वाचीनेऽस्मिन् कालेऽपि प्रायशः 24 कोटि जनाः अस्याम् भाषायाम् स्वविचाराणाम् विनिमयम् एवञ्च विद्यावतः शक्तिवन्तः विद्वांसः काव्यादीनाम् सृजनम् कुर्वन्ति। वस्तुतस्तु एषा भाषा सर्वासु भाषासु पवित्रतमा सरला च अस्ति।
बहु समीचीनम्। मान्यवर्याः, सम्प्रति प्रश्नः यत् संस्कृतभाषायाः सङ्घीयभाषाभिः सह कीदृशः सम्बन्धः, भवन्तः पश्यन्ति श्रोतारः ज्ञातुमिच्छन्ति।
प्रायशः 22 सङ्घीयभाषाः सन्ति। सर्वासाम् भाषाणाम् जननी एषा संस्कृतभाषा अस्ति। भाषावैज्ञानिकेन अध्ययनेन अवगम्यते यत् सर्वेषु प्रयुक्तेषु लौकिकवैदिकेषु शब्देषु धातवः सन्निहिताः भवन्ति। तत्स्वरूपम् तस्य धातोः इति स्वरूपम् वा शब्दस्य स्वरूपम् तत्समम् भवितुमर्हति, तद्भवम् भवितुमर्हति, देशजम् भवितुमर्हति, विदेशजम् भवितुमर्हति वा वर्णशङ्करम् अपि भवितुमर्हति। वस्तुतः एतैः सम्बन्धैः भाषाभिः सह संस्कृतस्य सम्बन्धः वर्तते। तत्र तु ध्वनिसम्बन्धः अस्ति, तत्र तु शब्दसम्बन्धः अस्ति, तत्र तु पदसम्बन्धः अस्ति, तत्र तु वाक्यसम्बन्धः अस्ति। वस्तुतः संस्कृतभाषायाम् ये वर्णाः प्रयुक्ताः सन्ति ते सर्वे वर्णाः प्रायशः ईश्वरेण प्राप्ताः सन्ति। वस्तुतस्तु कथयितुम् शक्यते शब्दयोर्मध्ये शब्दार्थयोर्मध्ये नित्यसम्बन्धकारणात् तत्र तु शब्देषु विकारः जायते, परञ्च अर्थेषु विकारः तावद् न भवति। चेत् तत्समरूपेण कापि भाषा वर्तते, कापि भाषा देशरूपेण वर्तते चेत् यत् परिवर्तनम् भवति नु यः सम्बन्धः परिदृश्यते अन्याभिः भाषाभिः सह तत्सम्बन्धम् तु ध्वनिरूपात्मकः सम्बन्धः भवति, तत्रैव तु पदरूपात्मकः सम्बन्धः भवति, तत्रैव तु वाक्यरूपात्मकः सम्बन्धः भवति। एभिः सम्बन्धैः संस्कृतभाषा अन्याभिः सङ्घीयभाषाभिः सह सम्बन्धिता अस्ति। तावदेव नहि, वस्तुतस्तु एषा या च संस्कृतभाषा अस्ति सा संस्कृतभाषा पूर्णत्वेन परिष्कृता, परिमार्जिता, परिशोधिता वर्तते। एवञ्च सर्वासाम् भारतीयभाषाणाम् तु जननी अस्त्येव। विश्वस्यापि बहव्यः तादृशाः भाषाः, तादृश्याः भाषाः सन्ति, तासाम् भाषाणामपि जननी एषा संस्कृतभाषा अस्ति।
भाषायाः वैज्ञानिकम् स्वरूपम् भवद्भिः बहु समीचीनम् प्रतिपादितम्। महोदयाः, सम्प्रति प्रश्नः यत् उच्यते, यथा भारतस्य प्रतिष्ठे द्वे संस्कृतम् संस्कृतिस्तथा इत्यस्मिन् विषये भवताम् कः भावः? कृपया श्रोतॄन् सम्बोधयन्तु।
बहु समीचीनम् भवद्भिः बहु सम्यक् रूपेण निरुक्तम् अयम् श्लोकः। तत्र तु भारतस्य प्रतिष्ठे द्वे संस्कृतम् संस्कृतिस्तथा। यदि भारत विषये वयम् चर्चयामः, भारत स्वराष्ट्रस्य विषये चर्चाम् कुर्मः चेत् अस्य राष्ट्रस्य, अस्य भारतदेशस्य या मूलाभाषा अस्ति सा भाषा संस्कृतभाषा अस्ति। संस्कृतभाषायाम् याः संस्कृतयः सन्निहिताः सन्ति ताः एव संस्कृतयः मानवसंस्कृतयः कथयितुम् शक्यते। वस्तुतः अर्धश्लोकोऽयम् भारतस्य प्रतिष्ठे द्वे संस्कृतम् संस्कृतिस्तथा। तत्र तु पूर्णश्लोकोऽस्ति अत्र यत् भारतस्य प्रतिष्ठे द्वे संस्कृतम् संस्कृतिस्तथा विहाय संस्कृतम् नास्ति। संस्कृतम् विहाय कापि संस्कृति भारतस्य नास्ति। यदि संस्कृताश्रिता, संस्कृतभाषाश्रिता यदि संस्कृति अस्ति चेत् सा संस्कृति भारतस्य संस्कृति। संस्कृति संस्कृतभाषाम् विहाय यदि कापि संस्कृति अस्मिन् खलु देशे वर्तते सा संस्कृति भारतस्य संस्कृति नास्ति। वस्तुतस्तु समाजे व्याप्तगुणानाम् समष्टिरूपम् वा परिष्कृतम् रूपमेव संस्कृतिः उच्यते। यस्याः प्रत्यक्षणम् तस्य समाजस्य चिन्तनेन, विचारेण, मूल्येन, साहित्यविद्यादिभिर्जायते। वस्तुतस्तु अस्याम् महापुरुषाणाम्, ऋषिमुनिमहर्षीणाम् आविष्कारः, कलायाः प्रमुखाः कृतयः, मानवेतिहासस्य केन्द्रभूता घटनाम्, अभिभावकानाम् लोककथा आदि भाषा अर्थात् संस्कृतभाषा अस्ति।
बहु समीचीनम् महोदयाः। एतस्य संवाद प्रभागस्य अन्तिमे अंशे प्रश्नः यत् NEP 2020 एवञ्च NCFSE इत्युभयोर्मध्ये संस्कृतभाषायाः कीदृशम् स्वरूपमस्ति? कृपया श्रोतॄन् सम्बोधयन्तु।
बहु समीचीनम् भवद्भिः निरुक्तम्। प्रश्नोऽपि समीचीनतमः अद्यतनीयः अस्ति। NEP 2020 इत्यस्य यदि भवान् चर्चाम् करोति चेत् इत्यस्य यद् निर्माणम् वर्तते, या च संरचना वर्तते, सा संरचना वा निर्माणम् भारतीय ज्ञान परम्परायाः आलोके एव अभवत्। भारतीय ज्ञान परम्परायाः आधारभूता भाषा संस्कृतभाषा एव अस्ति। अस्यामेव भाषायाम् प्रायशः भारतीय ज्ञान परम्परा सन्निहिता अस्ति। NEP 2020 इत्यस्य 4.17 मध्ये लिखितम् अस्ति यत् एषा संस्कृतभाषा भारतस्य संविधाने अष्टम् सूच्याम् वर्णिता आधुनिकीयम् भाषा अस्ति। अस्याः साहित्यम् विशालतमम् अस्ति। उच्यते यत् ग्रीक लैटिन साहित्यद्वयमपि मेलित्वा तुलना क्रियते चेदपि संस्कृतभाषा साहित्यस्य समानम् भवितुम् नार्हति। NCFSE 2023 मध्ये भाषा शिक्षायै, तत्र संस्कृतभाषा शिक्षायै क्षमताधारिताधिगमस्य संस्तुतिम् करोति यत् प्रत्येकम् शैक्षिक स्तरे दक्षतानाम्, निदर्शनात्मकानाम् अधिगमानाम् च प्रतिफलेन सह पाठ्यचर्यायाम् निर्दिष्टस्य लक्ष्यस्य प्राप्त्यर्थम् आधारम् संस्थापयति।
बहु समीचीनम् महोदयाः। संस्कृतभाषायाः अथ नव शिक्षानीति विषये भवद्भिः प्रतिपादितैः आशीर्वचोभिः वयम् आनन्दिताः। भवद्भ्यः आकाशवाणी पक्षतः पौनः पुन्येन हार्दाः धन्यवादाः। सादरम् प्रणामाः। नमो नमः।
धन्यवादाः, नमो नमः।
प्रिय बान्धवाः, पुरुषोत्तम शर्मणा प्रतिपादितः संस्कृत दिग्दर्शन प्रभागः सकल संस्कृत जगता सम्बद्धान प्रसंगान महत्वपूर्ण क्रियाकलापान् च उपस्थापयति एषः।
राष्ट्रियान्तरिक्ष दिवसावसरे केन्द्रीय संस्कृत विश्वविद्यालयस्य श्री रघुनाथ कीर्ति परिसरे चित्रकला प्रतियोगिता आयोजिता। अगस्त त्रयोविंश्याम् आयोजितायां स्पर्धायां प्रतिभागिभिः ब्रह्माण्डस्य अन्वीक्षणमिति विषयाधारितानि चित्राणि निर्मितानि। हैदराबाद स्थितस्य उस्मानिया विश्वविद्यालये संस्कृत परिषद अष्टादशी परियोजनान्तर्गतं त्रिंशत् दिवसीयं संस्कृत भाषा शिक्षण वर्गम् आयोजयिष्यति। अयं कार्यक्रमः आगामिने सोमवासरे आरप्स्यते। संस्कृत संस्कृति विकास संस्थानेन दिल्ली विश्वविद्यालयस्य दक्षिण परिषद संस्कृत विभागेन च सितम्बर मासस्य पञ्चविंशे दिने अन्ताराष्ट्रियं संस्कृत विदुषी सम्मेलनम् आयोजयिष्यते। सम्मेलनस्य मुख्य विषयः वैदिकाधुनिक परिप्रेक्ष्ये संस्कृतं संस्कृतिः नारीचीति वर्तते।
धन्यवादः भवति। बालानां कृते सुनियोजिता प्रतिष्ठिता च बालवल्लरी। बालाः अनुभागेऽस्मिन् निधिना सह श्रोष्यन्ति कथाम् एकाम्। अस्तु, गच्छामस्तावत् निधिं प्रति, या प्रस्तौति प्रभागमेनम्।
प्रियाः बालाः, अद्य अहम् एकां रुचिकरां कथां श्रावयामि। एकः धनिकः, तस्य विशालं गृहम् अपारम् ऐश्वर्यम्, किन्तु सुखं नास्ति, सर्वदा चिन्ता। तस्य गृहस्य पार्श्वे एकस्य निर्धनस्य कुटीरम्, तज्जीर्णम्। निर्धनस्य गृहे धनं नास्ति, प्रतिदिनं भोजनं नास्ति। एकः मध्याह्नः निर्धनस्य भोजनं नास्ति, तथापि सः सन्तोषेण गायति। एतद् धनिकः पश्यति, सः पृच्छति, भवतः धनं नास्ति, भोजनं नास्ति, तथापि सन्तोषः अस्ति? मम धनम् अस्ति, ऐश्वर्यम् अस्ति, तथापि सन्तोषः नास्ति, एतत् किमर्थम् इति। तदा निर्धनः वदति, महोदय, एषः वसन्तकालः, सर्वत्र सौन्दर्यम्, अहं तत् पश्यामि, गायामि, यत् अस्ति तत् अहं पश्यामि, अतः सन्तोषेण गायामि। भवान् यत् नास्ति तत् पश्यति, अतः सर्वदा चिन्तां करोति। धन्यवादः।
श्रोतृसमूहाः भारतस्य वैविध्यताम् एकस्मिन् सूत्रे बध्नाति भारतप्रशासनेन विहितं प्रचालितं च एक भारत श्रेष्ठ भारतमिति। एवमेव अस्योपक्रमस्य वर्धनाय अस्मिन् कार्यक्रमेऽपि योजितमस्ति। प्रभागोऽयं समुपस्थाप्यते मुदिता वेतालेन। भाषागत वैविध्यतां कर्णगोचरी कुर्वन्तु सर्वे।
प्रथमं वाक्यमस्ति, अगस्त मासस्य नवविंश्याम् राष्ट्रिय क्रीडा दिवसः आमान्यते। पहला वाक्य है, 29 अगस्त को राष्ट्रिय क्रीडा दिवस मनाया जाता है। मैथिली में 29 अगस्त के राष्ट्रिय क्रीडा दिवस मनायल जायत अछि। द्वितीयं वाक्यमस्ति, पञ्चोत्तर नवदश शततमे वर्षे अगस्त मासस्य नवविंश्याम् मेजर ध्यानचन्दः जन्म अलभत। दूसरा वाक्य है, इस दिन सन 1905 में मेजर ध्यानचंद का जन्म हुआ। मैथिली में एही दिन सन 1905 में मेजर ध्यानचंद का जन्म भेलनि। तृतीयं वाक्यमस्ति, मेजर ध्यानचंद हॉकी क्रीडायाः साधक नामना ज्ञायते। तीसरा वाक्य है, मेजर ध्यानचंद को हॉकी का जादूगर नाम से जाना जाता है। मैथिली में मेजर ध्यानचंद के हॉकी का जादूगर कहल जायत छनि। धन्यवादः।
प्रिय मित्राणि, आशास्ति यत् संस्कृत साप्ताहिकीति कार्यक्रमस्य अयं नूतनाङ्कः सर्वेभ्यः श्रोतृगणेभ्यः रोचते। श्रोतारः, आगामि सप्ताहे पुनरेकवारं नवीनान् विषयान् आधृत्य उपस्थिताः भविष्यामः वयम्। तावत्पर्यन्तं मह्यम् आज्ञाम् अनुज्ञापयन्तु कृपया। किञ्चित् तिष्ठन्तु भवन्तः। स्वीय बहुमूल्य प्रतिक्रियाः अस्मभ्यम् nst.sanskrit@gmail.com इत्यत्र अवश्यं प्रेषयन्तु। साम्प्रतं चलाम्यहम्। नमो नमः श्रोतृभ्यः, नमो नमः सर्वेभ्यः।